एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संघीय संसदः द्वयोरेव सदनयोः उपवेशौ ह्यः कार्यसूच्याम् प्रवेशेन विनैव स्थगितौ अभवताम्। प्रतिनिधि सभायाः उपवेशे नेकपा एमाले दलेन सुवर्ण तस्करीयस्य अनुसन्धानाय उच्चस्तरीयानुसन्धान समितिः संघटनीयेति अभियाच्य समाघोषः उच्चारितः, तदनु उपवेशः संचालना सामर्थ्यात् स्थगितो भवत्। उपवेश प्रारभणस्य अनुपदमेव एमाले दलस्य सांसदः उत्थाय विरोधम् ज्ञापितवन्तः। तदनन्तरं सभामुख देवराज घिमिरे एमाले दलस्य सांसदाय सूर्य थापा विधेयाय वक्तुम् समयम् अदात्। सांसदस्य थापाविदस्य भाषणक्रमे सत्ता पक्षस्य सांसदाश्च आसनाद् उदतिष्ठन्। तदनु सभामुख घिमिरे उपवेशस्य सञ्चालनार्थं सहयोक्तुं सांसदान् अन्वरुणत। सभामुखेन घिमिरे विधेन संसदि उत्थिते विषये सर्वकारस्य सदनस्य च ध्यानाकर्षणं जातम्। यस्मिन् विषये सर्वकारस्य उपप्रधान गृहमन्त्रितः उत्तरं च प्राप्तमिति ब्रुवता उपवेशस्य सुचारू सञ्चालनाय सहयोक्तुं भूयो भूय अनुरुद्धम् आसीत्। तत्पश्चादपि प्रमुख प्रतिपक्षिणः एमाले दलस्य सांसदः उत्थाय भाषणमञ्चस्य पुरतः समाघोषान् औच्चारयन् तदनु सभामुख घिमिरे उपवेशम् अस्थगयत्। प्रतिनिधिसभायाः अपरोपवेशः श्व शुक्रवासरे दिवा एकवादने वस्ता। एवमेव राष्ट्रिय सभायाः गतदिवसीयोपवेशश्च कार्यसूच्याम् प्रवेशेन विनैव स्थगितो भवत्। विपक्षी सांसदाः सुवर्ण तस्करस्य सम्बन्धे गृहमन्त्रिणम् अर्थमन्त्रिणम् च प्रति असत्यम् आरोपम् आक्षिपन् इत्युदीर्य संसदः अभिलेखनात् तद् अपसारयितुम् सत्तापक्षस्य सांसदैः प्रस्तुताम् याचनाम् प्रति प्रतिपक्षिदलेन विरोधो ज्ञापितः। तदनु उपवेश अवरुद्धो भवत्। तत्पूर्वम् उपवेशे भाषमाणाः सांसदा सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। सभायाम् समयम् गृहीत्वा भाषमाणैः सांसदैः पशु चतुष्पादेषु प्रसृतस्य लम्स्किस्क्रीन् रोगस्य, डेंगीरोगस्य संक्रमणस्य, जलविप्लव भूस्खलनयोः विपदश्च विषयेषु सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। राष्ट्रियसभायाः अपरोपवेशः श्व शुक्रवासरे पूर्वाह्नस्य एकादशवादने वस्ता। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति राष्ट्रनिर्माणे आदिवासी जनजातिनाम् निर्णायक भूमिका वर्तते। अन्तर्राष्ट्रिय आदिवासी जनजाति दिवसस्य अवसरे ह्य काष्ठमण्डपवर्तिनी नेपाल प्रज्ञा प्रतिष्ठाने आयोजिते कार्यक्रमे प्रधानमन्त्री प्रचण्ड अवोचत् नेपालस्य ऐतिहासिक विकासक्रमे सभ्यतायाः विकासे श्रम संस्कृतौ समग्र राष्ट्रनिर्माणे च आदिवासी जनजातिनाम् निर्णायकी भूमिका वर्तते इत्यतः इदम् यथार्थं सर्वैः उचितरूपेण आत्मसात् विधेयम्। प्रधानमन्त्री प्रचण्डः अगदत् सर्वकारः नेपालस्य आदिवासी समुदायैः भाष्यमाणानां सर्वासां भाषाणां साहित्य संस्कृत्योश्च संरक्षणाय प्रतिबद्धो वर्तते। बाल्वाटारवर्तिन्याः ललिता निवासस्य सर्वकारीय भूमेः अनियमिततायाः प्रकरणे निगृहितान् विंशतिम् जनान् अतिरिक्तानि सप्तदिनानि निग्रहणे एव संस्थाप्य अनुसन्धातुम् काष्ठमण्डप जनपद न्यायालयेन प्रहरिणे अनुमतिः प्रदत्ता वर्तते। न्यायालयेन ह्य एतान् जनान् अतिरिक्तानि सप्तदिनानि निग्रहणे एव संस्थाप्य अनुसन्धातुम् प्रहरिणः केन्द्रीयानुसन्धान निकायाय अनुमतिः प्रदत्तास्ति। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठः नागरिकाधिनियमस्य क्रियान्वयनाय आवश्यक नियमावल्याः प्रारूप निर्माणस्य कार्यम् अन्तिमचरणे प्राप्तमस्तीति सूचयति। ललितपुरे ह्य आयोजिते नागरिकताधिनियमस्य क्रियान्वयनस्य अवस्थायाः सम्बद्धे संचारकर्मिभिः विहिते विमर्शन कार्यक्रमे गृहमन्त्री श्रेष्ठः नागरिकताधिनियमस्य नियमावल्याः प्रारूपम् निर्मितमस्ति, शीघ्रमेव मन्त्रिपरिषदि प्रस्तोष्यते चेति असूचयत्। गृहमन्त्री श्रेष्ठ प्राप्तार्ह नागरिकतैः नेपालीभिः नागरिकतायाः प्रापणात् श्रेष्ठस्य काठिन्यस्य सम्बोधनाय एव नागरिकताधिनियम निर्मित अत्र स्थितानां समस्यानां समाधानत्वेन नियमावल्याः निर्माणाय पूर्वकार्यं विहितमिति अवोचत। कार्यक्रमे संचारकर्मिभिः मातुः नाम्नो नागरिकताम् प्राप्तुम् अधुनापि समस्यास्ति। मार्गस्थ बालबालिकाभिः तृतीय लिङ्गिभिश्च नागरिकताम् प्राप्तुम् काठिन्यम् वर्तते। नागरिकताम् प्राप्तुम् योग्यैरपि दीर्घकालम् यावत् प्रतीक्षायाः क्रमे स्थातव्यमस्ति चेत्यादि समस्याः समापनीयाः इति धारणाः उपस्थापिताः आसन्। संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च रेखा शर्मा कथयति संसदः अवरोधस्य अन्ताय सर्वकारः सक्रियो वर्तते। मन्त्रिपरिषदः मंगलवासरे उपविष्टस्य उपवेशस्य निर्णयान् सार्वजनिक कर्तुम् पूर्वेद्यो मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार मन्त्री शर्मा सुवर्ण तास्कर्य काण्डम् राज्यस्य निकायैः अनुसन्धीयमानम् वर्तते, यस्य प्रक्रिया अग्रे वर्धमाना चास्तीति हेतोः तत्र विश्वासः कर्तव्यः इति चर्चयन्ती अवदत् अनुसन्धानम् तथ्यपूर्णम् विधातुम् सर्वैः सहयोगः कर्तव्यः। संचार मन्त्री शर्मा राज्यस्य निकायैः विहिते अनुसन्धाने विश्वसनीये न दृष्टे एतस्मिन् विषये अपर निर्णयो विधातुम् शक्यते इति भासमाणा तत्कालम् अनुसन्धानम् पूरयितुम् अवसरः प्रदातव्यः, एतत् प्रकरणम् कारणम् प्रकल्प्य संसद नैवारोधव्येति अतर्कयत्। पत्रकार सम्मेलने संचारकर्मिणाम् जिज्ञासाम् समयन्ती संचार मन्त्री शर्मा लम्स्की स्किन महामार्याः नियन्त्रणाय सहायता प्रदानाय च कृषि मन्त्रालयेन योजना निर्मीयमाणा वर्तते, एतदर्थम् सम्बद्ध निकायाः स्वस्व क्षेत्रे कार्याणि कुर्वाणाः सन्तीति प्रावोचत्। मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिक कुर्वती संचार मन्त्री शर्मा श्रावणस्य त्रयोविंशे दिवसे उपविष्टेन मन्त्रिपरिषदः उपवेशेन वैद्युत संचार संजाल सुरक्षा नीतिः स्वीकृता, कोषागारीय अपराध दण्डन द्वितीय संशोधन विधेयकस्य संसदि प्रस्तुत्यै च स्वीकृति प्रदत्तेति अज्ञापयत्। मन्त्रिपरिषदः उपवेशेन पञ्चरूप्यकाणाम् पञ्चदश कोटि संख्यकानाम् मुद्राणाम् मुद्रणाय नेपाल राष्ट्र कोषाय स्वीकृतिम् दत्त्वा नेपालात् विभिन्नेषु देशेषु विधास्यमानेषु भ्रमणेषु कार्यक्रमेषु च सहभागितायै स्वीकृतिः प्रदत्ता वर्तते। उपप्रधान रक्षा मन्त्री पूर्णबहादुर खड्का निगदति काष्ठमण्डप तराई मधेस द्रुत मार्गायोजनाम् निर्धारित समय सीमायाः अभ्यन्तरे एव सम्पादयितुम् सर्वेषाम् पक्षाणाम् सहयोगस्य समन्वयस्य च आवश्यकता वर्तते। रक्षा मन्त्रालयस्य एतदन्तर्गतानाम् निकायानाम् च गतार्थिक वर्षस्य चतुर्थ त्रैमासिक वार्षिक प्रगति समीक्षोपवेशे काष्ठमण्डपे ह्य उपप्रधानमन्त्री खड्का आयोजनायाः क्रियान्वयनस्य क्रमे दृष्टाः वैधानिक समस्याः समीक्षणीयाश्चेति धारणाम् व्यक्तवान् इति समाचारः।